एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। आगामिनि सप्ताहे आयोक्ष्यमाणस्य प्रतिनिधिसभायाः निर्वाचनस्य कृते पञ्चसप्तत्यां जनपदेषु मतपत्रैः सह आवश्यक निर्वाचन सामग्र्यः निर्धारिते स्थले प्रापिताः सन्ति। काष्ठमण्डपम् भक्तपुर जनपदम् च विहाय सर्वेषु जनपदेषु निर्वाचन सामग्र्यः प्रापिताः सन्ति इति निर्वाचन आयोगेन ज्ञापितम् वर्तते। प्रत्यक्ष प्रणाल्याः समानुपातिक प्रणाल्याश्च मतपत्राणि पञ्चसप्तत्यां जनपदेषु प्रापिताः सन्ति इति आयोगस्य सहायक प्रवक्ता कुलबहादुरजीसी असूचयत्। काष्ठमण्डपस्य भक्तपुरस्य च निर्वाचन कार्यालयेषु अद्य निर्वाचन सामग्र्यः मतपत्राणि च प्रापयिष्यमाणाः सन्ति। प्रतिनिधिसभा सदस्यानां निर्वाचने एकलक्ष्यं षडशीतिः सहस्राणि च अस्थायिनो मतदातारः वर्तन्ते। एभिः मतदातृभिः समानुपातिक निर्वाचन प्रणाल्याः कृते निर्धारिते मतदानस्थले मतं दातुं शक्यते। अस्थायी मतदातृणां कृते त्रिचत्वारिंशदुत्तरैकशतं मतदानस्थलानि निर्धारितानि सन्ति इति आयोगस्य सहप्रवक्ता कुलबहादुरजीसी असूचयत्। मतदातृ सूच्याम् समाविष्टः परम् निर्वाचने योजितः अन्यैः कारणैः वा मतदानस्थलेषु गन्तुम् अशक्तानाम् जनानाम् अस्थायी मतदातृ सूच्याम् समावेशनस्य व्यवस्था वर्तते। नेपाल सर्वकारस्य प्रादेशिक सर्वकाराणाम् स्थानीय सर्वकाराणाम् च स्वामित्वे विद्यमानासु संस्थासु कार्यरताराम् कर्मचारिणाम् सेनायाः प्रहरिणाम् बन्दीजनानाम् निर्वाचने संलग्नानाम् कर्मचारिणाम् सुरक्षाकर्मिणाम् सांविधानिक निकायानाम् प्रमुखाणाम् पदाधिकारिणाम् च नामानि अस्थायी मतदातृनामावल्याम् समाविष्टानि सन्ति। नेपाली सेनया निर्वाचनस्य सन्दर्भे निर्वाचनात् पूर्वं निर्वाचनकाले निर्वाचनादनन्तरं च त्रिषु चरणेषु सुरक्षायाः व्यवस्थापनस्य प्रबन्धो विहितोऽस्ति। राष्ट्रिय सुरक्षा परिषदः परामर्शेन मन्त्रिपरिषदः निर्णयस्य अनुसारेण राष्ट्रपतेः स्वीकृतेः प्राप्तेः पश्चात् निर्वाचन सुरक्षायाः कृते परिचालितया नेपाली सेनया विगतकालिक निर्वाचनेषु इव अस्मिन् निर्वाचनेऽपि सुरक्षा व्यवस्थायाः योजना निर्मिता अस्ति। सैनिक प्रवक्तुः राजाराम बस्नेत इत्यस्य अनुसारेण निर्वाचन केन्द्रित प्रशिक्षणं संयुक्ताभ्यासञ्च सञ्चाल्य आवश्यक पूर्वकार्यम् विहितम् वर्तते। सर्वकारेण निर्वाचनस्य क्रमे आहतानां प्रहरिणां निःशुल्कम् उपचारस्य व्यवस्था विहिता अस्ति। मन्त्रिपरिषदः गतमंगलवासरस्योपवेशस्य निर्णयान् ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सार्वजनिकुर्वन् सर्वकारस्य प्रवक्ता गृहमन्त्री च ओमप्रकाश अर्यालः निर्वाचनस्य क्रमे आहतानां सुरक्षाकर्मिणाम् उपचारव्ययः सर्वकारेण एव विधीयते। मृत्यौ सति तेषां परिवारेभ्यः आर्थिक सहयोगं प्रदातुं च निर्णीतमस्ति इति असूचयत्। उपवेशेन सर्वकारस्य जनजीवनाम् आन्दोलनस्य प्रतिनिधिनां च मध्ये सम्भूतायाः संविधायाः अनुसारेण जनजी परिषदः संघटनस्य निर्णयो विहितोऽस्तीत्यतः विषयेऽस्मिन् संघटनादेशः स्वीकृतोऽस्तीति गृहमन्त्री अर्यालः असूचयत्। मन्त्रिपरिषदः उपवेशेन षोडश्यायोजनायाः क्रियान्वयनाय कार्ययोजनां स्वीकर्तुं चीनसर्वकारस्य अनुदानसहयोगेन कलंकीस्थानात् वसुन्धरास्थानपारन्तिकस्य मार्गस्य स्तरोन्नतेः कार्ये चक्रपथसुधारायोजनायाः क्रियान्वयन संविधायाः अनुसारेण करे सौविध्यं प्रदातुं च निर्णीतमस्ति इति प्रवक्ता अर्यालः असूचयत्। अन्य राजनीतिक दलानां प्रत्याशिनां वा निर्वाचनस्य प्रचार प्रसारयोः कार्ये व्यवधानं विहितं सत् लक्षद्वय रूप्यकाणां दण्डनं भविष्यतीति निर्वाचनायोगेन ज्ञापितं वर्तते। संघीय विधेरनुसारेण निर्वाचनस्य प्रचार प्रसारयोः कार्ये मतदानस्य अधिकारात् वञ्चनस्य कार्ये वा विहितयोः सतः लक्षद्वय रूप्यकाणां दण्डनं वर्षत्रयस्य कारावास दण्डनं वा भविष्यतीति विधिगत व्यवस्था विहिता अस्तीति निर्वाचनायोगेन ज्ञापितं वर्तते। प्रतिनिधिसभा सदस्यानां निर्वाचने सहभागिनां राजनीतिक दलानां प्रत्याशिनां च नैर्वाचनिक प्रचार प्रसारयोः कार्यस्य आयोगेन विभिन्न माध्यमैरनुगमनं विधीयमानमस्तीति आयोगेन ज्ञापितं वर्तते। निर्वाचनस्य दिने पर्यटकैः गमनागमनयोः कृते न्यूनतोऽपि दिनद्वयात् पूर्वम् अनुमतिं स्वीकृत्य यातायात साधनानि संचालयितुं शक्यन्ते इति व्यवस्था विहिता अस्ति इति निर्वाचनायोगेन ज्ञापितमस्ति। निर्वाचनायोगेन क्रियान्विते यातायात साधनानाम् अनुमति सम्बद्धे एतत् विक्रमवर्षीय कार्यविधौ निर्वाचनस्य दिने कान्यपि राष्ट्रियान्तराष्ट्रियोड्डयनानि नावरुद्धानि भविष्यन्तीत्यतः पर्यटकानां यातायात साधनानां संचालनाय अनुमतिर्ग्रहणस्य व्यवस्था विहिता विद्यते। सम्बद्ध जनपद प्रशासन कार्यालयात् काष्ठमण्डपे विद्यमानात् आयोगस्य कार्यालयात् वा न्यूनतोऽपि दिनद्वयात् पूर्वम् अनुमतिं गृहीत्वा पर्यटकैः यातायात साधनानां संचालनं कर्तुं शक्यते इति व्यवस्था विहिता अस्ति इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत्। पूर्व पश्चिम राजमार्गस्य हेटौडा उपमहानगरपालिकायाः 19 वडा क्षेत्रस्य बस्तीपुर स्थाने ट्रक यानेन मोटरसाइकल यानं प्ररित्तं सत् द्वयोः जनयोः मृत्युः सम्भूतोऽस्ति। मृतको मकवानपुर जनपदस्य राक्सिराङ्ग ग्रामपालिकायाः 1 वडा क्षेत्रस्य 22-वर्षीयः संजित स्याङताङ, 18-वर्षीयः अशोक थिङ्च वर्तेते इति मकवानपुर जनपद प्रहरी कार्यालयस्य प्रहरी उपरीक्षकः पुष्कर बोगटी असूचयत्। धादिङ जनपदे सञ्चाल्यमानस्य 900 नागढुङ्गा मार्गखण्डस्य कार्यम् अन्तिमचरणे प्राप्तमस्ति। अधुनावधि मार्गस्य स्तरोन्नतेः कार्यं प्रतिशतं 85% सम्पन्नमस्ति इति आयोजनया ज्ञापितं वर्तते। इति समाचारः।